एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। राष्ट्रपतिः विद्यादेवी भण्डारी विश्वस्य सर्वेषाम् नागरिकाणाम् कृते रोग प्रतिरोधिनः टीकाकरणस्य समान प्राप्तिम् सुनिश्चेतुम् बलम् ददाति। बेलायत देशस्य प्रधानमन्त्रिणा बोरिस जोनसन इत्यनेन आयोजिताय सुसांख्य सांजालिक विश्व टीकाकरण सम्मेलनाय श्रव्यदृश्य सन्देशम् प्रेषयन्ती राष्ट्रपतिः भण्डारी टीकाकरणाय निःसंक्रमीकरणाय च विश्वव्यापी गठबन्धनेन स्वास्थ्य सम्बद्ध सबल विकासस्य लक्ष्य प्राप्तेः स्वास्थ्यस्य क्षेत्रयोः विहितं योगदानं प्राशंसत्। टीकाकरण कार्यक्रमात् नेपालेन प्राप्ताम् उपलब्धिम् चर्चयन्ती राष्ट्रपतिः भण्डारी संयुक्त सुखाय प्रसन्नतायै च विश्वव्यापी रूपेण विधातव्यं प्रयत्नं प्रति नेपालस्य ऐक्यबद्धतां प्राकटयत्। प्रतिनिधि सभायां विनियोजन विधेयकस्य विभिन्नानि शीर्षकाणि आश्रित्य विमर्शनं प्रारब्धमस्ति। उपवेशे ह्य विधि न्याय संसदीय विषय महिला बाल बालिका ज्येष्ठ नागरिका भौतिक पूर्वाधार यातायात नगरीय विकास पेयजल भूमि व्यवस्था सहकारी विपन्नता निवारण युवक क्रीडा मन्त्रालयानाम् अन्तर्गतानि विभिन्नानि शीर्षकाणि विमृष्टानि। विनियोजन विधेयके नवभिः सांसदैः व्यय न्यूनीकरण प्रस्ताव प्रस्तुत आसीत्। विमर्शने सत्तापक्षीय सांसदाः मन्त्रालयगत रूपेण सन्तुलित तम आयव्ययकम् आगतमस्तीति भाषमाणः विनियोजनस्य अधिकार प्रेषणम् क्रियान्वयनञ्च प्रति ध्यान प्रदाने बलम् प्रादुः। प्रतिपक्षिदलस्य सांसदाः अवोचन् समग्रेण सन्तुलितम् न्यायोचितम् च विनियोजनम् न सम्भूतम् प्रदेशगत रूपेण आयव्ययकम् न्यायपूर्ण रूपेण नागतमस्ति। रूकुममा पश्चिम जनपदस्य चौरजहारी घटनायाः विषय अध्येतुम् संसदीय समितिः संघटयिष्यते। प्रतिनिधिसभायाः ह्यस्तनोपवेशे सभामुख अग्निप्रसाद सापकोटा घटनाम् अधीत्य अनुसन्धाय च सभायाम् प्रतिवेदनम् प्रस्तोतुम् प्रतिनिधिसभायाम् प्रतिनिधित्वकारिभिः दलैः सह आवश्यकम् विमृश्य नियमावल्याः अनुसारेण संसदीय विशेष समितिः संघटयिष्यते इति अज्ञापयत्। राष्ट्रिय सभाया ह्यस्तनोपवेशस्य विशेष समये सांसदैः कोरोना महामार्याः प्रभावितेभ्यः उद्योगेभ्यः सहयोगं प्रदातुम् परिपिधानस्य स्वरूपं परिवर्तयितुम् विदेशात् आगतानां व्यक्तिनाम् उचितं व्यवस्थापनं विधातुम् खाद्य संकटात् जनताम् रक्षितुम् च सर्वकारः अभियाचितोऽस्ति। राष्ट्रिय सभायाः परोपवेशः श्व विंशे दिवसे पूर्वाह्नस्य एकादशवादने वस्ता। प्रधानमन्त्री केपी शर्मा ओली कोविड उनविंशते निरोधन नियन्त्रणयोर् विषये स्थानीय स्तराणाम् संघ संगठनैः पदाधिकारिभिश्च सह ह्यो व्यमृशत्। प्रधानमन्त्री निवासे बालवाटार स्थाने विहिते तस्मिन् विमर्शने कोविड उनविंशतेः निरोधन नियन्त्रणयोः क्रमे स्थानीय स्तरैः अनुभूतानाम् समस्यानाम् सुरक्षावासानाम् निर्माणस्य स्वास्थ्य सामग्रीणाम् अवस्थायाः आगामिनः आर्थिक वर्षस्य आयव्ययकस्य च विषयेषु विमृष्टमिति ग्रामपालिका राष्ट्रिय महासंघस्य अध्यक्ष होम नारायण श्रेष्ठः अज्ञापयत्। प्रधानमन्त्री ओली कोविड उनविंशतेः निरोधन नियन्त्रणयोः स्थानीय स्तरैः निरूढाम् भूमिकाम् प्रशंसन् एतस्याः निरोधने नियन्त्रणे च संघ प्रदेश स्थानीय स्तरैः मिलित्वा विहितयोः सतो एव सफलताम् प्राप्तुम् शक्यते इत्यभासत। महासंघस्य अध्यक्षस्य श्रेष्ठस्य अनुसारेण प्रधानमन्त्री ओली कोविड उनविंशतेः नियन्त्रणाय स्थानीय स्तराणाम् समस्यानाम् विषये परामर्शांश्च अगृह्णात्। प्रधानमन्त्रिणा ओलिना चिरकालिक परिपिधानस्य कारणेन राष्ट्रस्य आर्थिक सहिताः गतिविधयः पूर्णतः अवरुद्धाः सन्तीति विचर्च्य एवंविधाः गतिविधयः सञ्चालयितव्याः कोविड उनविंशतेः नियन्त्रणम् च विधातव्यम् भवतीति हेतोः समाह्वयद्वयमेव युगपत् नेतव्यमिति उक्तमिति महासंघस्य अध्यक्ष श्रेष्ठः अबोधयत्। उद्योग वाणिज्यापूर्ति मन्त्रिणा लेखराज भट्टेन सह ह्य उद्योगी व्यवसायिनः परिपिधानस्य स्वरूप परिवर्तनस्य विषय व्यमृशन्। नेपालोद्योग वाणिज्य महासंघेन उद्योग परिसंघेन चेम्बर अफ कमर्स संस्थया च सह सम्बद्धाः उद्योगिनः व्यवसायिनश्च निरन्तरम् विधीयमानेन परिपिधानेन व्यवसायः संकटे प्राप्तः इति ब्रुवाणाः एतस्य स्वरूप परिवर्तनस्य विषये व्यमृशन् इति मन्त्रालयस्य उपसचिवः वीरेन्द्र बस्नेत अज्ञापयत्। मन्त्री भट्ट अवोचत् परिपिधानस्य स्वरूपस्य विषये विमृश्यमानमस्तीति हेतोः शीघ्रमेव व्यवसाय संचालनत्वेन स्वरूपं निर्मास्यते। असौ व्यवसायिभिः परिपिधान परिवर्तन कारिणः स्वरूपस्य विषये प्रस्तुताः परामर्शाः कोविड 19 संक्रमणस्य निरोधन नियन्त्रणोच्च स्तरीय समन्वय समितौ प्रस्तुष्यन्ते इत्यगदत्। मन्त्री भट्टः अन्येषां देशानामिव परिपिधान निवारणकारी स्वरूपं नेपालस्य न भविष्यतीति चर्चयन् अकथयत्। देशानां जनपदानां चानुसारेण स्वरूपं भिन्नं भविष्यति। नेपाले कोरोना विषाणो संक्रमणानन्तरं मृतानां जनानां संख्या 11 प्राप्ता अस्ति। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता डाक्टर विकास देवकोटा गत बृहस्पतिवासरे मृते सुरक्षित जनपदस्य 28 वर्षीय पुरूषे संक्रमणस्य पुष्टे अनन्तरं मृतकानां संख्या 11 प्राप्ता अस्ति इति अज्ञापयत्। प्रवक्तु देवकोटा भिदस्य अनुसारेण मृतक पुरूष अस्यैव ज्येष्ठस्य अष्टमे दिवसे भारतात् आगम्य 14 दिनानि यावत् स्थानीय सुरक्षण कक्षे स्थितः आसीत् इति समाचारः।